ईश्वरः परमः कृष्णः सच्चिदानन्द विग्रहः अनादिरादिर गोविन्दः सर्वकारण कारणम् सहस्रपत्र कमलम् गोकुलाख्यम् महत्पदम् तत्करुणिकारम् तद्धामम् तदनन्ताम् शशम्भवम् कर्णिकारम् महद्यन्त्रम् षट्कोणम् व्रजकीलकम् षडङ्ग षट्पदिस्थानम् प्रकृत्या पुरुषेण च प्रेमानन्द महानन्द अन्दे नाश्रयस्थितास्थितम् ज्योतिरूपेण मनुना कामबीजेन सङ्गतम् तत्किञ्जलकम् तदंशानाम् तत्पत्राणि श्रियामपि चतुरस्त्रम् तत्परितः सेतदीपाख्यमद्भुतम् चतुरस्त्रम् चतुर्मूर्तिश्चतुर्धामश्चतुस्कृतम् चतुर्विपुरुषार्थैश्च चतुर्विहेतुविवृतम् शूलैः दशाभिरन्धमूर्ध्वादोदिक्षुषपि अष्टभिर्निधिर्भिजुष्टम् अष्टभिः सिद्धिभिस्तथा मनोरूपैश्च दशभिर्दिक्पालैः परितोवृतम् श्यामैः गौरैश्च रक्तैश्च शुक्लैश्च पार्षदैभिः शोभितम् शक्तिभिस्ताभिरद्भुताभिः समन्ततः एवम् ज्योतिर्मयो देवः सदानन्दपरात्परः आत्मरामस्य तस्यास्ति प्रकृत्या न समागमः मायया रममाणस्य न वियोगास्तया सह आत्मना रमया रेमे त्यक्तकालम् शुश्रुक्षया नियतिः स रमा देवी तत्प्रिया तद्दशं सदा तद्लिङ्गम् भगवान् शम्भुर्ज्योतिरूपः सनातनः या योनिम् सा पराशक्ति कामबीजम् महद्वरेः लिङ्गयोनिकात्मिका जाता इमा माहेश्वरी प्रजा शक्तिमान् पुरुषः सोऽयम् लिङ्गरूपी महेश्वरः तस्मिन्नाविर्भूर्लिङ्गे महाविष्णुर्जगत्पति सहस्रशीर्षा पुरुषः सहस्राक्षसहस्रपात् सहस्रबाहुर्विश्वात्मा सहस्रांशः सहस्रशु नारायणस्य भगवान् तस्तस्मात्सत्सनातनः आविरासित्कारणार्णो निधिसङ्कर्षणात्मकः योगनिद्राम् गतस्तस्मिन् सहस्रांश स्वयम् महान् तद्रोमबीजजालेषु बीजम् सङ्कर्णस्य च हेमान्यण्डानि जातानि महाभूतानि वृतानि तु प्रत्यमण्डमेवाङ्काशान् एकाशान् दर्शति स्वयम् सहस्रमूर्ध्वा विश्वात्मा महाविष्णु सनातनः वामाङ्गदस्रजम् विष्णुम् दक्षिणाङ्गात् प्रजापतिम् ज्योतिर्लिङ्गमयीम् शम्भुम् कूर्चदेशादवात्सृज अहङ्कारात्मकम् विश्वम् तस्मात्तेदव्यजायत अथ स्त्रीविधैस्ते विषैर्लीलाल्मद्भुतः किल योगनिद्रा भगवति तस्य श्रीवसङ्गता शुश्रुक्षयान्ततो नाभिस्तस्य पद्मम् विनिर्ययो तन्नालम् हेमनलिलम् ब्रह्मणो लोकमद्भुतम् तत्त्वानि पूर्वरूढानि कारणानि परस्परम् समवायाप्रयोगाश्च विभिन्नानि पृथक् पृथक् चित्शक्त्या सज्जमानोऽथ भगवानादिपुरुषः योजयन्मायया देवो योगनिद्रामकल्पय योजयित्वा तु तान्येव प्रविवेश स्वयम् गुहाम् गुहाम् प्रविष्टे तस्मिंस्तु जीवात्मा प्रतिबुध्यते स नित्यो नित्यसम्बन्धः प्रकृतिश्च परेव सा एवं सर्वात्मन संबंधम नाभ्याम पद्मम हरेरभूत तत्र ब्रह्माद् भवत् भूयश्च चतुर्वेदी चतुर्मुखं संजातो भगवान् शक्त्या तत्कालं केल चोदितः शिश्रुक्षयां मतिं चक्रे पूर्वसंस्कार संस्कृतः ददर्श केवलं ध्यान्तं नान्यं कीर्ति सर्वतः उवाच पुरुतस्तस्मै तस्या दिव्या सरस्वती काम कृष्णाय गोविंद हे गोपी जन इत्यपि वल्लभाय प्रिया वहने मंत्रं ते दास्यति प्रियं तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति अथ ते पेश सुचिरं प्रीणं गोविंदम अव्ययम् श्वेतदीपं पतिं कृष्णं गोलोकस्थं परात्परं प्रकृत्या गुणरूपिण्या रूपिण्या परिपासितं सहस्रदलसंपन्ने कोटिकिञ्जिल्कब्रूहिते भूमिश्चिन्तामणि तत्र कर्णिकारे महासने समासीनं चिदानन्दं ज्योतिरूपं सनातनं शब्दब्रह्ममयं वेणुं वादयन्तं मुखाम्बुजे विलासिनी गणभृतं स्वैश्वैरंशैरभिस्तुतम् अथ वेणुनिनादस्य त्रयीमूर्तिमयी गति स्फुरन्ति प्रविवेशेश मुखाभ्यामि स्वयम्भुवः गायत्रीं गायतस्तस्माद् अधिगत्य सरोजजः संस्कृतश्चादिगुरुणा द्विजमतान्मत्तः त्रया प्रबुद्धो अथ विधिविज्ञाततत्त्वसागरः तुष्टाववेदसारेण स्तोत्रिणानेन केशवम् चिन्तामणिप्रकरसद्मसुकल्पवृक्ष लक्षावृतेषु सुरभिरविपालयन्तम् लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानम् गोविन्दमादिपुरुषम् तमहम् भजामि वेणुम् कण्वन्तर्मरविन्ददलायताक्षम् बर्हावतम् समसिताम्बुदसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषम् तमहम् भजामि आलोलचन्द्रकलसद्वनमाल्यवंशी रत्नाङ्गदम् प्रणयकेलिकलाविलासम् श्यामम् त्रिभङ्गललितम् यतप्रकाशम् गोविन्दमादिपुरुषम् तमहम् भजामि अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरञ्जगन्ति आनन्दचिन्मय सदुज्ज्वल विग्रहस्य गोविन्दमादिपुरुषम् तमहम् भजामि अद्वैतमच्युतमनादिमनन्तरूपम् आद्यम् पुराणपुरुषौ नवयौवनम् च वेदेषु दुर्लभमदुर्लभमात्मभक्तो गोविन्दमादिपुरुषम् तमहम् भजामि पन्थास्तु कोटिशतवत्सरसप्रगम्यो वायोरथापि मनसो मुनिपुङ्गवानाम् सोऽप्यस्ति यत्प्रसीदमचिन्त्य विचिन्त्य तत्त्वे गोविन्दमादिपुरुषम् तमहम् भजामि एकोऽप्यसौ रचयितुम् जगदण्डकोटिम् यच्छक्तिरस्ति जगदण्डचयाय दन्तः अण्डान्तरस्थ परमाणुचयान्तरस्थम् गोविन्दमादिपुरुषम् तमहम् भजामि यद्भावभावितधियो मनुजास्तथैव सम्प्रापैरूपमहिमाशयानभूषा सुक्तैरमेव निगमप्रतिशैस्तुवन्ति गोविन्दमादिपुरुषम् तमहम् भजामि प्रेमाञ्जनच्छुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति यं श्यामसुन्दरमचिन्त्य गुणस्वरूपम् గోవిందమాదిపురుషం తమహం భజామి. రామాదిమూర్తిషు కళా నియమేన తిష్టం నానావతారమకరుద్ భువనేషు కింతు కృష్ణ స్వయం సమభవత్ పరమః పుమానయో గోవిందమాదిపురుషం తమహం భజామి. ఆనంద చిన్మయ రసాత్మనయాత్మనః సు యః ప్రాణినాం ప్రతిఫలం స్మరుతామపేత్య లీలాయితేన భువనాని జగస్త్యజస్రం గోవిందమాదిపురుషం తమహం భజామి. గోలోకనామ్ని నిజధామ్ని తలే చ తస్య దేవీ మహేశ హరిధామసు తేషు తేషు తేతే ప్రభవనిచయా విహితాశ్చ యేన గోవిందమాదిపురుషం తమహం భజామి. సృష్టి స్థితి ప్రళయ సాధన శక్తిరేక ఛాయేవ యస్య భువనాని బిభర్తి దుర్గా ఇచ్ఛానురూపమపి యస్య చ తిష్ఠతే సా గోవిందమాదిపురుషం తమహం భజామి. క్షీరం యథా దధి వికార విశేషయోగా సంజాయతే నః తత ప్రతదస్తి హేతో యః శంభుతామపి తథా సముపేతి కార్యాన్ గోవిందమాదిపురుషం తమహం భజామి. దీపార్చిరేవ హి దశాంతరమవ్యపేత్య దీపాయతే వివృత హేతు సమాన ధర్మా యస్తాదృగేవ హి చ విష్ణుతయా విభాతి గోవిందమాదిపురుషం తమహం భజామి. యః కారణనావర్జలే భజతి స్మ యోగ నింద్రామనంత జగదండ సరోమకూప ఆధార శక్తిమవలంబ్య పరాం స్వమూర్తిం గోవిందమాదిపురుషం తమహం భజామి. యస్యైక్వ నిశ్వసతి కాలపథావలంబ్య జీవంతి లోమ విలజా జగదండనాథ విష్ణుర్మహాన్ హి యస్య కళా విశేషో గోవిందమాదిపురుషం తమహం భజామి. భాస్వాం యథాశ్మ సకలేషు నితేషు దేజ స్వీయం కియత్ ప్రకట్యత్ బ్రహ్మాయ ఏష జగదండ విధానకర్త గోవిందమాదిపురుషం తమహం భజామి. యదపాదపల్లవయుగం వినిధాయ కుంభ ద్వందే ప్రణామ సమయేష గణాధిరాజ విఘ్నాన్ విహంత మలమలస్య జగత్రయస్య గోవిందమాదిపురుషం తమహం భజామి. అగ్నిర్మహీర్గగమంబు మరుదుతశ్చ కాలస్తథా మనసీతి జగత్రయాణి యస్మాద్భవంతి విభవంతి విశంతియం చ గోవిందమాదిపురుషం తమహం భజామి. యచ్చక్షురేశ సవితా సకలగ్రహాణాం రాజా సమస్త మురతి శేష తేజః యస్యాజ్ఞయా భ్రమతి సంవృత కాలచక్రో గోవిందమాదిపురుషం తమహం భజామి. ధర్మో అథ పాపనిచయస్తుతయస్తపాంసి బ్రహ్మాదికీటపతకావదయశ్చ జీవాః యదత్ర మాత్ర విభవత ప్రకట ప్రభావా గోవిందమాదిపురుషం తమహం భజామి. యం క్రోధ కామ సహజ ప్రణయాది భీతి వాత్సల్య మోహ గురు గౌరవ సేవ్య భావై సంచింత్య తద్రశింతన ప్రమాపురేతి గోవిందమాదిపురుషం తమహం భజామి. శ్రేయః కాంతః కాంతః పరమ పురుష కల్పతరవో ద్రుమాభూమిశ్చింతామణిగణమయీతోయమమృతం కథాగానం నాట్యం గమనపి వంశీ ప్రియ సఖీ చిదానందం జ్యోతి పరమపి తదాస్వాద్యమపి చ సయత్ర క్షీరాద్ది స్రవతి సురభిశ్చ సుమహాన్ నిమేషార్ధాఖ్యో వా వ్రజతి నహి యత్రాపి సమయః भजे श्वेतद्वीपं तमम् इमं गोलोकमिति यम् विन्दन्तस्ते सन्तः क्षितिविरचारा कतिपये। प्रबुद्धे ज्ञान भक्तिभ्याम् आत्मानन्दं चिन्मये उदित्यन्ममुत्तमाम् भक्तिर्भगवत् प्रेम लक्षणा प्रमाणैस्तदाश्चारै तदाभ्यासन्मन्तनरम् बोधयन्नित्यमात्मात्मानम् भक्तिमामुत्तमाम् लभे। यस्या श्रेयस्करम् नास्ति यया निवृत्तिमाप्नुयात् या साधयति मामेव भक्ति तामेव साधयेत्। धर्मानन्यान् परित्यज्य मामेकम् भज विश्वसन् यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी। कुर्वन् निरन्तरम् कर्म लोकोऽयम् अनुवर्तते तेनैव कर्मणाध्यायन् माम् पराम् भक्तिमिच्छति। अहम् हि विश्वस्य चराचरस्य बीजम् प्रधान प्रकृतिम् पुमांश्च मया हितम् तेजम् इदम् विभर्षि विधे विदेहि त्वमथो जगन्ति। ईश्वरः परम कृष्ण सच्चिदानन्द विग्रह अनादिरादिर्गोविन्दः सर्वकारणकारणम्।